इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितम् यत् भारतम् एतादृशम् अपूर्वम् एआई प्रारूपं प्रस्तुयात् येन भारते निर्मितं विश्वाय निर्मितम् इत्यस्य भावना प्रतिबिम्बिता भवेत्। गुजरातस्य प्रभास पटन नगरे चतुर्दिवसीय सोमनाथ स्वाभिमान पर्व आरभत यत् सोमनाथ मन्दिरस्य शाश्वत भावनायाः उत्सवो वर्तते। प्रधानमन्त्री नरेन्द्र मोदी सबलम् अवोचत् यत् भारतस्य सभ्यतागत संकल्पेन एतत् सुनिश्चितं यत् सोमनाथस्य मुहुर्मुहुः पुनर्निर्माणं भवेत्, अपि च इदं पर्व देशस्य नैकानां बालानां स्मरणमपि अस्ति ये कदापि स्वसिद्धान्तानां नीतीनां च अनादरं न कृतवन्तः। भारतस्य आर्थिकी संवृद्धिः 7.6% भविष्यतीति अनुमानितम्। प्रवर्तन निदेशालयः सम्पूर्णे देशे एकस्य संगठित दलस्य विरुद्धं कूटशासकीय नियुक्ति वञ्चना प्रकरणे 15 स्थानेषु सहसान्वेषणं करोति। अपि च क्रीडावार्तासु, बैडमिंटन क्रीडायां भारतीय क्रीडिका पीवी सिन्धुः कुआलालम्पुरे मलेशिया मुक्त बैडमिंटन प्रतियोगितायाः उपांत्य चक्रे प्रविष्टा। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्यां स्वनिवासस्थाने भारतीय कृत्रिम बुद्धिमत्ता नवोद्योगैः सह राउण्ड टेबल सम्मेलनस्य अध्यक्षता विहिता। अग्रिमे मासे भारते आयोजनात् 26,000 भारतीय कृत्रिम बुद्धिमत्ता प्रभावशिखर सम्मेलनात् प्राग् 12 भारतीय कृत्रिम बुद्धिमत्ता नवोद्योगैः ये एआई फॉर ऑल ग्लोबल इम्पैक्ट चैलेंज इति वैश्विक प्रभाव समावानं कार्यक्रमस्य योग्यतां प्राप्तवन्तः ते सम्मेलनेऽस्मिन् भागम् अगृह्णन्। सभायां ते स्वविचारान् स्वकार्याणि च प्रस्तुतवन्तः। एताः नवोद्योग संस्थाः व्यक्तिगत विषय वस्तु भारतीय भाषा आधारित प्रतिरूपस्य ई वाणिज्यस्य विपण्याः उत्पादक कृत्रिम बुद्धेः च उपयोगेन 3D विषय वस्तु निर्माणम् अभियान्त्रिक अनुकरणानि स्वास्थ्य सेवायां निदानं चिकित्सा अनुसन्धानं च इत्यादिषु विविधेषु क्षेत्रेषु कार्यं कुर्वन्ति। सभायां प्रधानमन्त्री अवोचत् यत् अग्रिमे मासे भारतं भारतीय कृत्रिम बुद्धि प्रभावशिखर सम्मेलनस्य आतिथ्यं करिष्यति। श्रीमोदी सबलम् उक्तवान् यत् नवोद्योगाः कृत्रिम बुद्धिमता उद्यमिनः च भारतस्य भविष्यस्य सह निर्मातारः सन्ति, अपि च देशे नवान्वेषणस्य बृहदाकार कार्यान्वयनस्य बह्व्यः सम्भावनाः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् भारतम् एतादृशम् अपूर्वम् एआई प्रारूपं प्रस्तुयात् येन भारते निर्मितं विश्वाय निर्मितम् इत्यस्य भावना प्रतिबिम्बिता भवेत्। 26,000 वर्षे मोहम्मद गजनी इत्यस्य सोमनाथ मन्दिरस्य उपरि प्रथम आक्रमणस्य 1,000 स्मरणार्थम् अद्य गुजरातस्य तटीयनगरे प्रभास पटन नगरे सोमनाथ स्वाभिमान पर्व आरभत। अस्मिन् वर्षे उत्सवः पुनः स्थापितस्य मन्दिरस्य उद्घाटनस्य वार्षिकोत्सवेन सह अपि समागच्छति। भारतीय संस्कृतिं प्रति दृढविश्वासम् आत्मसम्मानं च प्रदर्शयन्तः चतुर्दिवसीय कार्यक्रमे देवालयस्य परिसरे अनेकाः आध्यात्मिक सांस्कृतिक सामाजिक गतिविधयः भविष्यन्ति। सोमनाथ स्वाभिमान पर्व इत्यस्य आरम्भे प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय शुभाशयाः प्रेषिताः। एकस्य सामाजिकान्तर्जालीय पटलस्य श्रृङ्खलायां सः अवोचत् यत् ऐतिहासिक अवलोकनं भारतस्य अत्यन्तं पूज्यतीर्थस्थलैः सह सम्बद्धां स्थितिस्थापकतां सुदृढविश्वासं च प्रतिबिम्बयति। स सः अवदत् यत् इदं पर्व देशस्य नैकानां बालकानां स्मरणमपि अस्ति ये कदापि स्वसिद्धान्तानां नीतीनां च अनादरं न कृतवन्तः। प्रधानमन्त्री अवदत् यत् मुहुर्मुहुः आक्रमणं भवति चेदपि भक्तानां नित्यविश्वासः, भारतस्य सभ्यसङ्कल्पः च सोमनाथस्य मुहुर्मुहुः निर्माणं सुनिश्चितं करोति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। भारतस्य आर्थिकी संवृद्धिः राष्ट्रिय सांख्यिकी कार्यालयस्य प्रथमाग्रिम अनुमानात् अधिका भविष्यति इति आशास्यते। इयं तावत् गत सितम्बर मासतः नीतिगत निर्णयैः प्राप्तं सकारात्मकं उच्च आवृत्ति मानांकनं प्रदर्शयति। मार्गन स्टेनली इत्यस्य एकेन प्रतिवेदनेन 26,2000 वर्षे वास्तविक सकलांतरिक उत्पाद संवृद्धिः 7.6% भविष्यति इति अनुमानितम्। एतत् राष्ट्रिय सांख्यिकी कार्यालयस्य वित्तीय वर्षाय कृतस्य 7.4% अधिकम् अस्ति। राजकोषीय मौद्रिक नीति समर्थनम्, उत्तमा क्रय शक्तिः, श्रम विपण्याः सुदृढ परिदृश्यं च एतत् सुनिश्चेष्यति यत् उपभोग पुनरुत्थानम् इतोपि व्याप्नुयादिति। इतः पूर्वम् एनएसओ संस्थायाः मानांकन तथ्येषु प्रतिक्रियां प्रयच्छन् प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् भारतस्य परिष्कारात्मक द्रुतयानम् अनवरतं समेधते। सः अकथयत् यत् संवृद्धेः एतत् परिदृश्यम् एनडीए सर्वकारस्य निरन्तर निवेशेन तथा याचनाधारित नीतिगत उपायैः प्रेरितं वर्तते। प्रवर्तन निदेशालयः सम्पूर्णे देशे एकस्य संगठित दलस्य विरुद्धं कूट शासकीय नियुक्ति वञ्चना प्रकरणे सहसान्वेषणं करोति। संस्थया सूचितं यत् वञ्चनेयम् आदौ भारतीय रेलवे इत्यस्य नाम्ना प्रकाशमापन्ना, परन्तु अन्वेषणे ज्ञातं यदस्मिन् चत्वारिंशदधिकाः अन्याः सर्वकारीय संस्थाः विभागाश्च सम्मिलिताः सन्ति। षड् राज्यानां 13 नगरेषु 15 स्थानेषु च सहसान्वेषणं जायते। एतेषु बिहारे मुजफ्फरपुर, मोतिहारी च, पश्चिमबंगाले कोलकाता, केरले एर्नाकुलम, पण्डालनम, अदूर कोड्डूर इत्येतानि, तथैव तमिलनाडुराज्ये चेन्नई, गुजराते राजकोटः, सहैव उत्तरप्रदेशे च गोरखपुर, प्रयागराज, लखनऊ नगराणि सम्मिलितानि सन्ति। प्रवर्तन निदेशालयेन प्रोक्तं यत् अयं समूहः कूट ईमेल लेखानाम् उपयोगं कृत्वा राजकीय अधिकारम् आभासयित्वा कूट नियुक्ति पत्राणि प्रेषयति स्म। विकसित भारत युव नेतृणां संवादः श्वः नवदिल्ल्यां भारत मण्डपे भविष्यति। वार्ताहरैः सह वार्तालापं कुर्वन् युवा कार्य क्रीडा मन्त्री डॉ मनसुख मांडवीय अवदत् यत् कार्यक्रमस्य चतुर्षु दिनेषु अशेषात् हि देशात् युव नेतारः प्रधानमन्त्री नरेन्द्र मोदी वर्यस्य समक्षं विकसित भारतस्य विषये स्वविचारान् उपस्थापयितुं समागमिष्यन्ति इति। सः अवोचत् यत् संवादोऽयं देशस्य युवशक्तिम् अग्रतः नेतृत्वं कर्तुं, वास्तविक प्रतिसन्धिं स्वीकर्तुं, भारतस्य भविष्यस्य च सहनिर्माणार्थं सशक्तं करोति। बैडमिंटन क्रीडायां भारतीय क्रीडिका पीवी सिंधुः कुआलालंपुरे मलेशिया मुक्त बैडमिंटन प्रतियोगितायाः उपान्त्यचक्रे प्रविष्टवती। साद्य केवलं 32 निमेषेषु जापान देशस्य टोमोको मिजायाकी इत्येनां 28-21-13 अंकैः पराजितवती। अनेन विजयेन सिंधुः मलेशिया ओपन क्रीडायाः चतुर्थवारं उपान्त्यचक्रे प्रविष्टवती इति वार्ताः।